वैश्वानराजधिषणा मृतावृधे घृतन्नपोतभग्नजे जनामसि द्विता होतारम् मनुषश्च बाघतो धिजारथन्नकुलिशः समृण्वते सरोच यद्यनुषा रोदसी उभे समात्रोरभवत्पुत्र ईड्याः हव्यमाणग्निरजरश्च नो अहितो दूर्लभो विषामतिथिर्विभावसः क्रत्वा दक्षस्य नरुषो विधर्मणि देवासो अग्निञ्जनयन्त चित्तिभिः रुरुचानम् भानुना ज्योतिषा महामत्यन्न वाजम् सनिष्यन्नुपब्रुवे आमन्द्रस्य सनिष्यन्तो वरेण्यम् वृणीमहे अह्रजम् वाजमृग्मिजम् रातिम् भृगोणामुषिजम् कविक्रतुमग्निम् राजन्तम् दिव्येन शोचिषा अग्निम् सुम्नाय दधिरे पुरो जनाबाजश्रवसमिह वृक्तबर्हिषः यतस्रजः सुरुजम् विश्वदेव्यम् रुद्रम् यज्ञानाम् साधदिष्टिमपसा पावकशोचेतपहि क्षजम् परिहोतर्यज्ञेषु वृक्तबर्हिषो नराः अग्ने तुव इच्छमानास आप्यमुपासते द्रविणम् देहितेभ्यः आरोदसी अवृणदा स्वर्महज्जातम् यदेनमपसो अधारयन् सो अध्वराज परिणीयते कविरत्यो न वाजसातजे च नोहितः नमस्यत हव्यदादिम् स्वध्वरम् दुभस्य ददम्यम् जातवेदसम् रथेररथस्य बृहतो विचर्षडिरग्निर्देवानामभवत्पुरोहितः तिस्रो जह्वस्य सविधः परिज्मनोऽग्नेरपुनन्नुषिजो अमृत्यवः तासामे कामदधर्मर्थे भुजमुलोकमुद्वे उपजामिमी जतुः विशाम् कविम् विष्पतिम् मानुषेरिषः संसे मकृण्वान् स्वधितिन्न तेजसे स उद्वतो निपतो जाति मे विषत्सगर्भमेषु भुवनेषु दीधरत स जिन्वते जठरेषु प्रजग्निवान्वृषा चित्रेषु नानदन्न सिंहः वैश्वानरः पृथुपाजा अमर्त्यो वसुरत्नादजमानो विदाशुषे वैश्वानरः प्रत्नथानाकमारुहद्दिवस्पृष्ठम् भन्दमानः सुमन्मभिः सपोर्भवज्जनयन् जन्तवेधनम् समानमज्मम् पर्येति जागृभिः ऋतावानम् यज्ञजम् विप्रमुख्या अपायम् दधेमा दर्श्वादिभिक्षजम् तम् चित्रजा मम् हरिकेशमीमहे सुदीतिमग्निम् सुमिता जनव्यसे शुचिन्दजामन् शिरम् स्वर्दृशम् केतुम् दिवोरोचनस्थामुशर्बुधम् अग्न्यम् वोर्धानम् दिवो अप्रतिष्कुतम् तमेमहे नमसा वाजिनम् बृहत मन्द्रम् होतारम् शचिमध्वजा विनम् दमो न स मुख्यम् विश्वदर्शणिम् रथन्न चित्रम् वपुषाय दर्शतम् मनुरहितम् सदमिद्राज ईमहे